अयि सबलमुरारे पाणिजानुप्रचारैः किमपि भवनभागान् भूषयन्तौ भवन्तौ चलितचरणकञ्जौ मञ्जुमञ्जीर शिञ्जाश्रवणकुतुकभाजौ चेरतुः चारुवेगात् मृदु मृदु विहसन्तौ उन्मिषद्दन्तवन्तौ वदनपतितकेशौ दृश्यपादाब्जदेशौ भुजगलितकरान्तव्याळगत्कङ्कणाङ्कौ मतिम् अहरतमुच्चैः पश्यतां विश्वनृणाम् अनुसरति जनौघे कौतुकव्याकुलाक्षे किमपि कृतनिनादं व्याहसन्तौ द्रवन्तौ वलितवदनपद्मं पृष्ठतो दत्तदृष्टि किमिव न विदधाथे कौतुकं वासुदेवा द्रुतगतिषु पतन्तौ उत्थितौ लिप्तपङ्कौ दिवि मुनिभिः अपङ्कैः सस्मितं वन्द्यमानौ द्रुतमथ जननीभ्यां सानुकम्पं गृहीतौ मुहुरपि परिरब्धौ द्राग्युवां चुम्बितौ च स्नुतकुचभरम् अङ्के धारयन्ती भवन्तं तरलमति यशोदा स्तन्यदा धन्यधन्या कपटपशुपा मध्ये मुग्धहासाङ्कुरं ते दशनमुकुलहृद्यं वीक्ष्यवक्त्रं जहर्षा तदनुचरणचारी दारकैः साकम् आरान्निलयततिषु खेलन् बालचापल्यशाली भवनशुकबिडालान् वत्सकांश्चानुधावन् कथमपि कृतहासैः गोपकैः वारितोऽभूः हलधरसहितस्त्वं यत्र यत्रोपयातः विवशपतितनेत्राः तत्र तत्रैव गोप्याः विगलितगृहकृत्याः विस्मितापत्यभृत्याः मुरहर मुहुः अत्यन्ताकुलाः नित्यमासन् प्रतिनवनवनीतं गोपिका दत्तमिच्छन् कलपदमुपगायन् कोमलं क्वापि नृत्यन् सदय युवतिलोकैः अर्पितं सर्पिरश्नन् क्वचन नवविपक्वं दुग्धमपि आपिबस्त्वं मम खलु बलिगेहे याचनं जातम् आस्ताम् इह पुनः अबलानाम् अग्रतः नैव कुर्वे इति विहितमतिः किं देव सन्त्यज्य याच्यां दधिघृतम् अहरस्त्वं चारुणा चोरणेन तव दधिघृतमोषे घोषयोषा जनानाम् अभजत हृदि रोषो नावकाशं न शोकः हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वं स मम शमयरोगान् वातगेहाधिनाथ ॐ तत्सदिति श्रीमन्नारायणीये पञ्चचत्वारिंशं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविन्दा गोविन्दा श्रीकृष्णार्पणमस्तु।